अष्टमध्याय
अथाष्टमध्यायः अर्जुन उवाच किं तन्ब्रह्म किम् अध्यात्मम् किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदेवं किम् उच्यते अधियज्ञः कथं कोत्र देहेऽस्मिन् मधुसूदन प्रियाणि काले च कथम् ज्ञेयोऽसि नियतात्मभिः श्रीभगवान् उवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवो करो विसर्गाकारणसंहितः अधिभूतं चरो भावः पुरुषश्चाधिदेवतम् अधियज्ञोऽहमेवात्र देहे देहभृताम्बर अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् यः प्रयाति समन्भावम् याति नास्त्यत्र संशयः यं यं वापि स्मरन् भावम् त्यजत्यन्ते कलेवरम् तं तमेवैति कौन्तेय सदा तं भावभावितः तस्मात् सर्वेषु कालेषु माम् अनुस्मर्युद्धि च मयि अर्पिते मनोबुद्धिर् मामेवेष्यस्य संशयः अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यम् याति पार्थानुचिन्तयन् कविं पुराणम् अनुशासितारम् अणोरणीयान् समनुस्मरेद्यः सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्ता प्रियाणकाले मनसा चलेन भक्त्या युक्तो योगबलेन चैव भुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यन्यति यो वीतरागा यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनो हृदि निरोध्य च मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणा ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहम् स याति परमां गतिम् अनन्यचेता सततम् यो मां विस्मरति नित्यशः तस्याहं सुलभा पार्थ नित्ययुक्तस्य योगिनः मामुपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिं परमां गता आ ब्रह्मभुवनान् लोका पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेय పునర్జన్మ నవేదితే సహస్రయుగ పర్యంతం అహర్యన్ బ్రహ్మణో విదూ రాత్రిం యుగ సహస్రాంతం తే హో రాత్రివిదో జనా అవ్యక్తావ్యక్తయః సర్వా ప్రభవంత్యహరాగమే రాత్ర్యాగమే ప్రళీయంతే తత్రైవావ్యక్త సంజ్ఞకే భూతగ్రామః స ఏవాయం భూత్వా భూత్వా ప్రళీయతే రాత్ర్యాగమే వశః పార్థ ప్రభవత్యహరాగమే పరస్తస్మాత్ భావోన్యో వ్యక్తో వ్యక్తాత్ సనాతనః యః స సర్వేషు భూతేషు నశ్యత్సు న వినశ్యతి అవ్యక్తోక్షర ఇత్యుక్తః తమాహూ పరమాం గతిం యం ప్రాప్నాని వర్తంతే తద్ధామి పరమం మమ పురుషః స పరః పార్థ భక్త్యా లభ్యస్త్వనన్యయా యశ్యాంతాస్థాని భూతాని యేన సర్వమిదం తతం యత్ర కాలే తునావృత్తిం ఆవృత్తిం చైవ యోగినః ప్రియాతాయాంతి తం కాలం వక్ష్యామి భరతర్షభ అగ్నిర్జ్యోతిర్హ శుక్లః షణ్మాస ఉత్తరాయణం తత్ర ప్రియాతా గచ్చంతి బ్రహ్మ బ్రహ్మవిదో జనా ధూమో రాత్రి తథా కృష్ణ షణ్మాస దక్షిణాయనం తత్ర చాంద్రమసం జ్యోతిర్ యోగీ ప్రాప్తి నివర్తతే శుక్ల కృష్ణ గతి హేతి జగతా శాశ్వతే మతే ఏకయాయాత్యనావృత్తి అన్యయా వర్తతే పునః నేతే శృతి పార్థ జానన్ యోగీ ముహ్యతి కశ్చన తస్మాత్ సర్వేషు కాలేషు యోగయుక్తో భవార్జున వేదేషు యంగేషు తపాసు చైవ దానేషు యత్ పుణ్య ఫలం ప్రదిష్టం అత్యేతి తత్ సర్వమిదం విదిత్వా యోగీ పరం నిస్థానమపేతి చాద్యం. ఓం తత్ సదితి శ్రీమద్భగవద్గీతాసూపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే అక్షరబ్రహ్మ యోగో నామ అష్టమోధ్యాయ అథ నవమోధ్యాయ శ్రీభగవాన్ ఉవాచ ఇదం తు తే గుహ్యతమం ప్రవక్ష్యామ్యనసూయవే జ్ఞానం విజ్ఞాన సహితం యజ్ఞాత్వా మోక్షసే శుభా రాజవిద్యా రాజగుహ్యం పవిత్రం ఇదముత్తమం ప్రత్యక్షావగమం ధర్మం సుసుకం కర్తుమవ్యయం అశ్రద్ధానా పురుషా ధర్మస్యాస్య పరంతప అప్రాప్య మాం నివర్తంతే మృత్యు సంసార వర్త్మని మయా తతం ఇదం సర్వం జగదవ్యక్త మూర్తినా మతస్థాని సర్వభూతాని నచాహం తే స్వవస్థితః నచా మతస్థాని భూతాని अस्मि योगमेश्वरम् भूतधृण च भूतस्थो ममात्मा भूतभावनः यथाता स्वस्थितो नित्यम् वायु सर्वत्र गोमहान् तथा सर्वाणि भूतानि मतस्थानि उपधारय सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विस्रजाम्यहम् प्रकृतिं स्वामवष्टभ्य विस्रजामि पुनः पुनः भूतग्रामं मिमं कृत्स्नम् अवशं प्रकृतेर्वशा न च मां तानि कर्माणि निमदनन्ति धनञ्जय उदासीन वदासीनम् असक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृतिः श्रूयते सचराचरम् हेतुनानेन कौन्तेयम् जगद्विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावं जानन्तो मम भूत महेश्वरम् मोघासा मोघकर्माणो मोघज्ञान विचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रितां महात्मानस्तु मां पार्थ देवीं प्रकृतिं माश्रिता भजन्तनन्य मनसा ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहं क्रतुरहं यज्ञः सदाहमहमौषधम् मन्त्रोऽहम् अहम् एवाज्यम् अहम् अग्निरहं हुतम् पिताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमोङ्कार ऋक्सामो यजुरेव च गतिर्भरता प्रभु साक्षी निवासा शरणं सुहृन् प्रभुवः प्रलयास्थानम् निधानं बीजमव्ययम् तपाम्यहम् अहं वर्षम् निगृह्णाम् विसृजामि च अमृतं चैव मृत्युश्च सदसच्चाहम् अर्जुन त्रैविद्या मां सोमपापूत पापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ति ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यां दिवि देवभोगां ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्म मनु प्रपन्ना गतागतं कामकामालभन्ते अनन्याश्चिन्तयन्तो मां ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। येत्यन्य देवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त विधिपूर्वकम्। अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु माम् अभिजानन्ति तत्त्वेन तश्च वन्दिते। यान्ति देवव्रता देवा पितृन्यान्ति पितृव्रता भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्। तत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्तिपरतम् अस्नामि प्रेतात्मना। यत्करोषि यदस्नासि यज्जुहोषि ददासि यन् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्। शुभाशुभा फलैरेवं मोक्षस्य कर्मबन्धन सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपेशसि। समूहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मैते तेषु चाप्यहम्। अपि चेत् सो दुराचारो भजते मामनन्यभा साधुरेव समन्तव्या सम्यं व्यवसितो हि सः। किं पुनर्क्षिप्रं भवति धर्मात्मा सस्वच्छान्तिं न गच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति। मामे पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः स्त्रियो वैश्या तथा शूद्रा तेऽपि यान्ति परां गतिम्। किं पुनर्ब्राह्मणा पुण्या भक्ता राजर्षयस्तथा अनित्यम् असुखम् लोकम् इमं प्राप्ते भजस्व माम्। मन्मनाभो मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैषसि युक्त्वेवम् आत्मानं मत्परायणः। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगृहयोगो नाम नवमोऽध्यायः।
दशमोऽध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचहं यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकामयान्। न मे विदुः सुरगणान् प्रभुवं नाम हर्षयहम् अहमादिर्हि देवानां महर्षीणां च सर्वशहम् यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् असम्मूढा समर्थेषु सर्वपाप प्रमुच्यते। बुद्धिर्जानम् असम्मोहा च न सत्यं दमः समहम् सुखं दुःखं भवो भावो भयं च भयमेव च। अहिंसा समता तुष्टिस्तपो दानं यशो यशाम् भवन्ति भावा भूतानां मत एव पृथम्विधाम्। महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मन भावा मानसा जाता येषां लोक इमा प्रजाम्। एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सोऽविकल्पेन योगेन युज्यते नात्र संशयः। अहम सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते माम बुधा भाव समन्विता
चेत्ता मन्गत प्राणा बोधयन्तः परस्परं तदयन्तश्च माम नित्यं तुष्यन्ति च रमन्ति च तेषां सतत युक्तानां भजतां प्रीतिपूर्वकम् तदा मे बुद्धियोगं तं येन मामपयान्ति ते तेषामेवानुकम्पार्थम् अहम् अज्ञानजं तमः नाशयाम्यात्मभावस्तो ज्ञानदीपेन भासता अर्जुनोवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुम् आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे सर्वमेतन्नृतं मन्ये यन्मां वदसि केशव नहि ते भगवन् व्यक्तिं विदुर्देवा न दानवा स्वयमेवात्मनात्मानम् वेथ त्वं पुरुषोत्तमं भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्या ह्यात्मविभूतयः याभिर्विभूतिभिर्लोकान् इमास्त्वं व्याप्यतिष्ठसि कथं विद्यामहं योगी त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् श्रीभगवान् उवाच हन्तते कथयिष्यामि दिव्या ह्यात्मविभूतया प्राधान्यतः कुरु श्रेष्ठ नश्यन्तो विस्तरश्य मे अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहम् आदेश्च मध्यं च भूतानां अन्त एव च आदित्यानाम् अहं विष्णु ज्योतिषां रविशृंसुमान् मरीचिर्मरुतामस्मि नक्षत्राणाम् अहं शशि वेदानां सामवेदोऽस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानाम् अस्मि चेतना रुद्राणां शङ्करश्चास्मि वित्तेषो यक्षरक्षसाम् वसूनां पावकश्चास्मि मेरुशिखरिणामहम् क्रोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिं सेनानीनामहमस्कन्दः सरसामस्मि सागरः महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् यज्ञानां जप यज्ञोऽस्मि स्थावराणां हिमालया अश्वत्थाः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथा सिद्धानां कपिलो मुनि उच्चश्रवसम् अश्वानां विद्धिमाम् अमृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् आयुधानां अहं वज्रम् धेनूनामस्मि कामधो रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः अनन्तश्चास्मि नागानां वरुणो यादसामहम् पितृणां मर्यमा चास्मि यमः संयमतामहम् प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् मृगाणां च मृगेन्द्रोऽहम् वैनतेयश्च पक्षिणां पवनः पवतामस्मि रामः शस्त्रभृतामहम् जटाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी सर्गाणाम् आदिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मवेद्या वेद्यानां वादः प्रवदतामहम् अक्षराणां मकारोऽस्मि द्वन्द्वः सामासिकस्य च अहमेवाक्षयः कालो दाताहं विश्वतो मुखः मृत्यु सर्वहरश्चाहम् उद्भवश्च भविष्यताम् कीर्ति स्त्रीर्वाक्च नारीणां स्मृतिर्मेधाधृति च माम् बृहत्तां तथा साम्नां गायत्री छन्दसामहम् मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः द्यूतं चलयताम् अस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः मुनीनामप्यहं व्यासः कवीनां मुष्णा कविः दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् यच्चापि सर्वभूतानां बीजं तदहम् अर्जुन न तदस्ति विनायस्य मया भूतं चराचरम् नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप एष तोद्देशतः प्रोक्तो विभूतेर्विस्तरो मया यद्यन् विभूतिमत्त्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छ त्वं मम तेजोंश सम्भवम् अथवा बहुनेतेन किं ज्ञातेन तवार्जुन विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगन् ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः अथ एकादशोऽध्यायः अर्जुन उवाच मदनुग्रहाय परमं गुह्यम् अध्यात्मसंहितं यत्त्वयोक्तं वचस्तेन मोहोयम् विगतो मम भवाप्ययो हि भूतानां श्रुतो विस्पर्शो मया तत्तः कमलपत्राक्ष माहात्म्यम् अपि च व्ययम् एवमेतन्यथाथ त्वम् आत्मानं परमेश्वर द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम मन्से तच्छक्यम् मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वम् दर्शयात्मानमव्ययम् श्रीभगवान् उवाच पश्य मे पार्थरूपाणि शतशोऽथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च अस्यादित्यान् वसून् रुद्रान् अश्विनो मरुतस्तथा बहून्यदृष्टपूर्वाणि तस्याश्चर्याणि भारत इह कस्थं जगत्कृष्णम् अस्याद्यसचराचरम् मम देहे गुडाकेश यच्चाण्यं द्रष्टुमिच्छसि न तु मां शक्यसे द्रष्टुम् अनेन वासचक्षुषा दिव्यं ददामि ते चक्षु तस्य मे योगमेश्वरम् सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरि दर्शयामास पार्थाय कर्मम् अरूपम् ऐश्वरम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकादिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतो मुखम् दिवि सूर्यसहस्रस्य भवेन्युगपदुत्थिता यदि भासदृशी सा स्यात् भासस्तस्य महात्मनः तत्र कथं जगत्कृष्णम् अत्र विभक्तम् अनेकधा अपश्यन् देवदेवस्य शरीरे पाण्डवस्तदा तथा स विस्मयाविष्टो हृष्टरो माधनञ्जयः प्रणम्य शिरसा देवम् कृताञ्जलिरभासत अर्जुनोवाच पश्यामि देवां तव देवदेहे सर्वां तथा भूतविशेषसङ्घान् ब्रह्माणमीशं कमलासनस्थम् ऋषीं च सर्वानुरगां च दिव्यान् अनेकबाहोदरवक्त्रनेत्रम् पश्यामि त्वां सर्वतोऽनन्तरूपम् नान्तं न मध्यं न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप किरीटिनं गदिनं चक्रिणं च तेजो राशिं सर्वतो दीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्षं समन्ता दीप्तानलार्कद्युतिमप्रमेयम् त्वमक्षरं परमं वेदितव्यम् त्वमस्य विश्वस्य परं निधानम् तमाव्यया शाश्वत धर्म गोप्ता सनातनस्तम पुरुषो मतो मे अनादिमध्यांतम अनंत वीर्यम् अनंत बाहुं शशि सूर्य नेत्रम् पश्यामि त्वां दीप्तिहुताश वक्त्रम् सतेजसा विश्वमिदं तपन्तम् द्यावा पृथिव्योरिदमन्तरं हि व्याप्तं त्वयेकेन दिशश्च सर्वा दृष्ट्वाद्भुतं रूपमुग्रं तवेदम् लोकत्रयं प्रव्यथितं महात्मन् अमेह त्वां सुरसङ्गा विशन्ति केचिन् भीता प्राञ्जलयो गृह्णन्ति षष्टीत्युक्त्वा महर्षसिद्धसङ्गा स्तुवन्ति त्वां निस्तुतभिः पुष्कलाभिः रुद्रादित्या वसवो ये च साध्या विश्वेशुनो मरुतश्चोष्मपाश्च गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे रूपं महते बहुवक्त्रनेत्रम् महाबाहो बहुबाहुरुपादम् बहुदरं बहुदंष्ट्राकरालम् दृष्ट्वा लोका प्रव्यथितास्तथाहम् नभास्पृशं दीप्यमनेकवर्णम् व्याताननं दीप्यविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि समं च विष्णो दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास अमे च त्वां धृतराष्ट्रस्य पुत्रा सर्वे सहैव वनिपालसङ्घ भीष्मो द्रोणः सूतपुत्रस्तथासां सहास्मदीयैरपि योधमुख्य वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्ग यथा नदीनां बहवम्बुवेगा समुद्रमेवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति वक्त्राण्यभिज्ज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा तथैव नाशाय विशन्ति लोका तवापि वक्त्राणि समृद्धवेगा लेलिह च ग्रसमाना समन्ता लोकान् समग्रान् वदनेर्ज्वलद्भि तेजोभिरापूर्य जगत् समग्रम् भासस्तवोग्रा प्रतपन्ति विष्णो आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देव वर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम् श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ऋते पितां न भविष्यन्ति सर्वे एव स्थिता प्रत्यनीकेषु योधा अस्मात्मुत्तिष्ठ यशो लभस्व जित्वा शत्रुं भुंक्षु राज्यं समृद्धम् मया वैते नियता पूर्वमेव निमित्त मात्रं भव सव्यसाचिन् द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योद्धवीरान् मया हतां त्वं जहिमा विधिष्ठा युद्धस्वजेता तिरणे सपत्नान् संजय उवाच एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेद्यमानः किरीटी नमस्कृत्वा भूयये वाहे कृष्णम् सदन्ततं भीतभीता प्रणम्य अर्जुन उवाच स्थाने हृषिकेश तव प्रकीर्त्या जगत्प्रहृष्यन्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा तस्माच्च तेना न मेरन्महात्मन् दरीयसे ब्रह्मणोऽप्याधिकर्त्रे अनन्ददेवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यन् त्वमादिदेवः पुरुषः पुराणम् त्वमस्य विश्वस्य परं निधानम् वेतासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपा वायुर्यमग्निर्वरुणाशङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते लाइट लाइट नमा पुरस्तादथ पृष्ठतस्ते लाइट नमोऽस्तु ते सर्वदेव सर्वम् अनन्तवीर्यामिति विक्रमस्त्वम् और सर्वं समाप्नोऽसि ततोऽसि सर्वः और सखेति मत्वा प्रसभं यदुक्तम् हे कृष्ण हे यादव से सखेति अजानता महिमानं तवेदम् मया प्रमादात् प्रणयेन वापि अभी ठीक है यच्चावहासार्थमसत्कृतोऽसि विहारशय्या सन्भोजनेषु एकोऽथ वाप्याच्युत तत्समक्षम् तच्छामये त्वाम् अहमप्रमेयम् हितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् न तत्समोऽस्त्यभ्यधिकः कुतुण्यो लोकत्रयेभ्य प्रथमे प्रभाव तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहमेष मेड्यम् पितेव पुत्रस्य सखेव सख्यो अपदर प्रिया प्रियायार्हसि देव सोढम् अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे तदेव मे दर्शय देवरूपम् प्रसीद देवेश जगन्निवास किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव येनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते श्री भगवान वाच मया प्रसन्नेन तमार्जुनेदम् रूपं परं दर्शितमात्मयोगा तेजोमयं विश्वमनन्तमाद्यं यन्मे तदन्येन न दृष्टपूर्वम् न वेदयज्ञाध्ययनैर्नदाने न चाक्रियाभिर्न तपोभिरुग्रह एवं रूपः शक्यहं न लोके द्रष्टुं तदन्येन कुरु प्रवीर मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमिदृङ्ममेदम् न पेतभि प्रीतमना पुनस्त्वम् तदेव मे रूपमिदं प्रपश्य सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा शतं रूपं दर्शयामास भूया आश्वासयामास च भीतमेनम् भूत्वा पुनः स्वमिव कुर्महात्मा अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेता प्रकृतिं गतः श्री भगवान् उवाच दुर्दर्शम् इदं रूपम् दृष्टवान् असि यन्मम देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्य एवं विधो द्रष्टुं दृष्टवान् असि मां यथा भक्त्या त्वनन्यया शक्या अहमेवं विधोऽर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च मे युक्ततमा मता ये त्वक्षरम् अनिर्दिश्यम् अव्यक्तं पर्युपासते सर्वत्र गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् सन्नियम्येन्द्रिये ग्रामम् सर्वत्र समबुद्धया ते प्राप्नुवन्ति मामेव सर्वभूतहितेरता क्लेशोऽधिकतरस्तेषाम् अव्यक्ता सत्त्वचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहबन्धिर्वाप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशत चेतसाम् मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छा त्वं धनञ्जय अभ्यासेऽप्य समर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि अथ तदप्य शक्तोऽसि कर्तुं मन्योगमाश्रितः सर्वकर्म फलत्यागम् ततः कुरु यद् आत्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशेषते ध्यानात् परम फलत्यागात् त्यागाच्छान्तिरनन्तरम् अन्विष्टा सर्वभूतानां नेत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखाक्षमे सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पित मनोबुद्धिर् यो मन्भक्तः स मे प्रियः यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्थभयो द्विज मुक्तो यः स च मे प्रियः अनपेक्षा सुचिरदक्ष उदासीनो गदव्यथः सर्वारम्भ परित्यागी यो मन्भक्तः स मे प्रियः यो न हृष्यति न दृष्टि न शोचति न कांक्षति शुभाशुभ परित्यागी भक्तिमान् स मे प्रियः समासत्र च मित्रे च तथा मानाप्यमानय शीतोष्ण सुख दुःखेषु समासङ्ग विवर्जितः तुल्यनिन्दा स्तुतिर्मौनि सन्तुष्टो येन केनचिन् अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः यत् धर्मामृतम् इदम् यथोक्तम् पर्युपासते श्रद्धानामत्परमा भक्तास्तेव मे प्रिया ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः अथ त्रयोदशोऽध्यायः अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च एतन्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव श्रीभगवान् उवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते एतन्यो वेति तं प्राहु क्षेत्रज्ञ इति तन्विदः क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रं द्वयोर्ज्ञानं यत्तज्ज्ञानं मतं मम तच्छेत्रं यच्च यादृक्च यन्विकारी यतश्च यन् सचयो यन् प्रभावश्च तत्तमासेन मे शृणु
श्रीर्बहुधा गीतम् छन्दोभिर्विविधै पृथक् ब्रह्मसूत्रपदश्चैव हेतुमन्भिर्विनिश्चित महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकं च पञ्चचेन्द्रियगोचरा इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः एतच्छेत्रं समासेन
क्षेत्रं तमसेन
सविकारं मुदाहृतम् अमानित्वम् अदम्भित्वम् अहिंसा शान्तिरार्जवम् आचार्योपासनं शौचम् स्थैर्यम् आत्मविनिग्रहः इन्द्रियार्थे सुवैराग्यम् अनहंकार एव च जन्म मृत्यु जरा व्याधि दुख दोषानुदर्शनम् असक्तिरनभिस्वङ्गः पुत्रदार गृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु मयि चानन्न योगेन भक्तिरव्यभिचारिणी विवेक्तदेशसेवित्वम् हरतेर्जनसंसदि अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानम् इति प्रोक्तम् अज्ञानम् यदतो अन्यथा ज्ञेयं यत्तन् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते सर्वतः पाणिपादम् तत्सर्वतोक्षीशरोमुखम् सर्वतः पाणिपादम् तत् सर्वतोक्षीशिरोमुखम् सर्वतः स्तुतिमल्लोके सर्वमावृत्य तिष्ठति सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् असक्तम् सर्वभृच्चैव निर्गुणम् गुणभोक्तृ च. अविभक्तं च भूतेषु बहिरन्तश्च भूतानाम् अचरं चरमेव च सूक्ष्मत्वात् तदविज्ञेयम् दूरस्थं चान्तिके च तन् अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् भूतभर्त्रे च तज्ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ज्योतिषाम् अपि तज्ज्योतिष् तमसा परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यम् हृदि सर्वस्य विष्ठितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मन्भक्त एतन्विज्ञाय मन्भावायोपपद्यते प्रकृतिं पुरुषं चैव विद्यनादियो भावपि विकारांश्च गुणांश्चैव विद्धि प्रकृति सम्भवान् कार्ये कारणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् कारणं गुणसङ्गोऽस्य सदसन्योनि जन्मसु उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः एवं वेत्ति पुरुषम् प्रकृतिं च गुणैः सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्येषाङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये त्वेवम जानन्तः श्रुत्वा नेभ्य उपासते ते विचाति तरन्त्येव मृत्युं श्रुतिपरायणाम् यावत् सञ्जायते किञ्चिन् सत्त्वं निस्थावर जङ्गमम् क्षेत्रक्षेत्रङ्गसंयोगात् तद्विद्धि भरतर्षभ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं विनश्यत्स्व विनश्यन्तं यः पश्यति स पश्यति समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् नहनस्त्यात्मनात्मानम् ततो याति परां गतिम् प्रकृत्येव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानम् अकर्तारं स पश्यति यदा भूत पृथंग भावम् एकस्थम् अनुपश्यति तत एव च विस्तारम् ब्रह्म सम्पद्यते तदा अनादित्वान् निर्गुणत्वात् परमात्मायमव्ययः शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते यथा सर्वगतं सौक्ष्म्यात् आकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते यथा प्रकाशयत्येकः कृत्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्नं प्रकाशयति भारत क्षेत्रक्षेत्रङ्गयोरेवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षम् भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञ विभागयोगो नाम त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिं मितो गता इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च मम यो निर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् सम्भवः सर्वभूतानां ततो भवति भारत सर्वयोनिषु कौन्तेया मूर्तयः सम्भवन्ति या तासां ब्रह्म महन् योनि अहं बीजप्रदः पिता सत्त्वं रजस्तम् इति गुणा प्रकृतिसम्भवा Vimadananti Mahabaho Dehe Dehi Namavyayam Tatra Sattvam Nirmalatva Pratashakam Manamayam Sukhya Sangena Badanati Jnana Sangena Chanaga Rajo Ragatmakam Vidhi Krishna Sangha Samundhavam Anna Madnati Konteyam Karma Sangena Dehinam Tamastvajnana Jambidhi Mohanam Sarvadehinam Pramadalas Nidrabhis Tanne Badnati Bharata Sattvam Sukhe Sanjayati Rajaha Karmani Bharata Jnanam Avritya Totamaha Pramade Sanjayatyuta Rajastamascha Vibhuya Sattvam Bhavati Bharata Raja Sattvam Tamaschaiva Tamasattvam Rajastatha Sarvedvare Sudehesmin Prakasha Upajayate Jnanam Yadata Davidya Vivriddham Sattvam Ityuta Lobha Pravrittirarambha Karmanam Asamaha Ispriha Rajasyetani Jayante Vimriddhe Bharatarshava Aprakasha Pravrittischa Pramado Mohe Vicha Amasyetani Jayante Vimriddhe Kurunandana Yada Sattve Pravriddhe Tu Pralayam Yadi Dehebrit Tadottamo Vidam Lokan Amalan Pratipadyate Rajasi Pralayam Gatva Karma Sanghi Sujayate Tatha Pralinas Tamasi Mudayoni Sujayate Karmanaha Sukritasyahu Satyakam Nirmalam Phalam Rajasastu Phalam Dukkham Agyanam Tamasa Phalam Sattva Sanjayate Jnanam Rajaso Lobha Evacha Pramada Moha Tamaso Bhavato Jnanam Evacha Urdhvam Gacchanti Sattvastha Mandhe Tishthanti Rajasa Jaghanya Guna Vrittistha Adho Gacchanti Tamasa Nanyam Gunebhya Kartaram Yada Drashtanu Pashyati Gunebhyascha Parambhiti Man bhavam sodhi gacchati Gunanetanatityatrim Dehi dehi samunbhavam Janma mrityu jara dukher Vimukto mritam asnute Arjuna vacha Kerlinga strin gunam Etanatito bhavati prabho Kimacharaha katham chetam Trin gunanati vartate Prakasham cha pravittim cha Mohameva cha pandava Nadvesti sampravrittani Nanivrittani kangchati Udasina madasino Gunaryo na vichalyate Gunavartanta ityevam Yovatishthati nengate sam dukha sukha swastha sam loshta sma kanchanaha tulya priya priyo dhira tulya nindatma santuti mana pemana yos tulya tulyo mitrari pakshayo sarvarambha parityagi gunatita sa ochite mam jayobhya vicharena bhakti yogena sevate sagunan sammati tetan brahma bhuyaya kalpate brahmano hi pratishtaham amritasya vyayasya cha sasutasya cha dharmasya sukhasya kandikasya cha om tatsat iti srimad bhagavad gitasu upanishatsu brahma vidyayam yoga shastre sri krishna arjuna samvade guntraya vibhag yoga nam chaturdasho adhyayah atha panchadasho adhyayah sri bhagavan uvacha urdhamulam madhasakham asvattham prahuravyayam chandansi yasya parnani yastam veda savedave adhaschortham prasritastasya sakha guna pravriddha visaya pravala adhasamulani anusantatani karmanubandhine manushya loke narupamasyeh tatopalabhyate nanto na chadir na cha sampratishtha aswatthamenam suvirodha mulam asanga sastrena dradhena chitva tatah padam tan parimargitavyam yasmin gathana nivartanti bhuya tameva chadyam purusham prapadye haribol yata pravritti prasita purani ashok nirmana moha jata sangha dosa adhyatma nitya vinivritta kama dandar vimukta sukhi dakhya sangha gacchanta mudha padam ambyayam tan natan bhasaite suryo na shashanko na pavakaha yangatvana nivartante tadhama paramam mama mamevam so jiva loke jiva bhutaha sanatanaha manasasthanindriyani prakritisthani karasate shariram yad avapnoti yachapyutkramati swaraha grihitvetani sanyati vayurgandhani vashayat trotram chakshusparshanam cha rasanam ghralame vicha adhishthaya manaschayam vishyanukasevate utkramantam misthitam vapi vanjanam vagudanvitam vimudhananu pasyanti pasyanti jnana chakshusaha yatanto yoginaschayanam pasyantyatmanyavasthitam yatanto pyakritatmano nenam pasyanta chetasaha yadaditya gatam tejo jagan bhasaite khilam यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धिमामकम् धामावेश्य च भूतानि धारयाम्यहमोजसा कृष्णामि चौषधि सर्वा सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् सर्वस्य चाहं हृदि सन्निविष्टो मत्ता स्मृतिर्ज्ञानमपोहनं च वेदस्य सर्वैरहमेव वेद्य वेदान्तकृन्वेदविदेव चाहम् द्वाविमो पुरुषो लोके क्षरश्चाक्षर एव च क्षरा सर्वाणि भूतानि कूटस्थोक्षर उच्यते उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः यस्माक्षरम् अतीतोऽहम् अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यो मामेवम् सम्मूढो जानाति पुरुषोत्तमम् स सर्वविन् भजति माम् सर्वभावेन भारत इति गुह्येतमं शास्त्रम् इदम् उक्तं मया नघ एतन्बुद्ध्वा बुद्धिमान् च कृतिकृत्यश्च भारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तम योगो नाम पञ्चदशोऽध्यायः अथ षोडशोऽध्यायः श्रीभगवान् उवाच अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः दानं दमस्य यज्ञश्च स्वाध्याय तप आर्जवम् अहिंसा सत्यमक्रोध त्यागः शान्तिरपेशुनम् दयाभूतेषु लोलुप्तम् मार्दवम् ह्रीरचापलम् तेजः क्षमा धृते शौचम् पल्टो अद्रोहो नातिमानिता भवन्ति सम्पदं देवी अभिजातस्य भारत पल्टो दम्भोदर्पोऽभिमानश्च चाभिजातश्च पार्थसम्पदमासुरीम् क्या हुआ है पीछे करें
चौथा श्लोक
दोबारा दम्भोदर्पोऽभिमानश्च क्रोधापारुष्यमेव च अज्ञानं चाभिजातश्च पार्थसम्पदम् आसुरीम् दैवी सम्पन्विमोक्षाय निबन्धायासुरीमता मा शुचः सम्पदं देवीम् अभिजातोऽसि पाण्डव द्वाभूत सर्वलोकेऽस्मिन् दैव आसुर एव च दैवो विस्तर्षा प्रोक्ता आसुरं पार्थ मे शृणु प्रवृत्तिं च निवृत्तिं च जनानो विदुरासुरा न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यम अप्रतिष्ठम ते जगन आहुरनीश्वरम अपरस्पर संभूतम किमन्यत्ताम हेतुकम एताम दृष्टिम वष्टव्य नष्टात्मान वल्पे बुद्धयः प्रभवन्ते उग्र कर्माणः छजाय जगतो हिता कामम आश्रित्य दुष्पूरम दम्ममान मदान्विता मोहान् गृहीत्वा संग्रहान् प्रवर्तन्ते स्वचेमृता चिन्ताम् अपरिमेयाम् च प्रलयान्तामपाश्रिता कामोऽपि भोग्य परमा एतावदिति निश्चिताम् अशोक आशा पाश सतेरबद्धा काम क्रोध परायणा इहन्ते काम भोगार्थम् अन्यायेनार्थ संचया इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् इदमस्ति इदमपि मे भविष्यति पुनर्धनम् असौ मया हता शत्रून् हनिष्ये च परानपि ईश्वरोऽहम् अहम् भोगी सिद्धोऽहम् बलवान् सुखी आढ्योऽभिजनवानस्मि पुण्योऽस्ति सदृशो मया यच्छे दास्यामि मोदिष्य इत्यज्ञान विमोहिता अनेकचित्त विभ्रांता मोहजाल समावृता प्रसक्ता काम भोगेषु पतन्ति नरकेषु च आत्मसंभाविता स्तब्धा धनमान मदान्विता यजन्ते नाम यज्ञस्ते दम्भेन विधि पूर्वकम् अहंकारं बलं दर्पं कामं क्रोधं च संत्रिता मामात्म परदेहेषु प्रद्विष्यन्तो व्यसूयका तानहं दुषितः क्रूरान् संसारेषु नराधमान् क्षिपाम्य जस्त्रम् अशुभान् आसुरीष्वेव योनिषो आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि माम प्राप्य एव कौन्तेय ततो यान्त्यधि मां गतिम् त्रिविधं नरकश्चेदम् द्वारं नाशनमात्मनः कामः क्रोधस्तथा लोभः तस्मादेतत्त्रयं त्यजेत् एतैर्विमुक्तः कौन्तेय तमो द्वारे त्रिभिर्नरः आचरत्यात्मना श्रेयः ततो याति परां गतिम् यः शास्त्रविधिमुत्सृज्य वर्तते कामकारितः न स सिद्धिम् अवाप्नोति न सुखम् न परं गतिम् तस्मात् शास्त्रम् प्रमाणम् ते कार्याकार्ये व्यवस्थिता ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुम् इहार्हति ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे देवासुरसंवादविभागयोगो नाम षोडशोऽध्यायः अथ सप्तदशोऽध्याय। आप लोग एक पुस्तक में दो तीन लोग बैठ जाओ, आप लोग भी आ जाए, है ना, एक किताब में चार पांच लोग भी देख सकते हैं। अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता तेषां निष्ठा तु का कृष्ण सत्त्वमहो रजस्तमः श्री भगवान उवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तां शृणु सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धा स एव सः यजन्ते सात्विका देवान् यक्ष रक्षन्ति राजसा प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जना अशास्त्रविहितं घोरम् तप्यन्ते ये तपो जना दम्भाहङ्कार संयुक्ता कामराग बलान्विता कर्षयन्तः कर्षयन्तः शरीरस्थम् भूतग्रामम् अचेतसः मां चैवान्ता शरीरस्थम् तान् विद्यासुर निश्चयान् आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानम् तेषां भेदमिमं शृणु आयो सत्त्वबलारोग्य सुखप्रीतिविवर्धना रस्या स्निग्धा स्थिरा हृद्या आहारा सात्विकप्रिया कट्वं लवणात्युष्ण तीक्ष्णरुक्ष विदाहिनः आहारा राजसस्येष्टा दुःखशोकामय प्रदा यातयामं गतरसं कूती पर्युषितं चयन् उच्छिष्टमपि चामेध्यम् भोजनं तामस प्रियम् अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य यजते यष्टं जमे वेति मनः समाधाय स सात्विकः अभिसन्धाय तु फलम् दम्भार्थमपि चैव यन् यजते भरतश्रेष्ठ तं यज्ञं विद्धिराजसं विधिहीनम् असृष्टान्नम् मन्त्रहीनम् दक्षिणम् श्रद्धाविरहितं यज्ञम् तामसं परिचक्षते देवद्विजय गुरुप्राज्ञ पूजनं शौचमार्जवम् ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते अनुद्वेगकरं वाक्यम् सत्यं प्रीहितं च या स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते मना प्रसादः सौम्यत्वम् मौनम् आतविनिग्रह भावसंशुद्धिरित्येतत् तपो मानसं मुच्यते श्रद्धया परया तप्तम् तपस्तत्त्रिविधं नर अफलाकाङ्क्षिभिर्युक्त सात्विकं परिचक्षते सत्कार्यमान पूजार्थम् तपोदम्भेन चैव यन् क्रियते तदिह प्रोक्तम् राजसं चलमन्ध्रुवम् मूढग्राहेणात्मनो यत्पीडया क्रियते तपः परस्योत्सादनार्थं वा तत्तामसं उदाहृतम् दातव्यमिति यद्दानं दीयते नोपकारिणे देशे काले च पात्रे च तन्दानं सात्विकं स्मृतम् यत्तु प्रत्युपकारार्थं फलम् उद्देश्य वा पुनः दीयते च परिक्लिष्टम् तन्दानं राजसं स्मृतम् आदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते असत्कृतम् अवज्ञातम् तत्तामसम् उदाहृतम् ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधा स्मृतः ब्रह्मणास्तेन वेदाश्च यज्ञाश्च विहिता पुरा तस्मादो मित्युदाहृत्य यज्ञदान तपः क्रिया प्रवर्तन्ते विधानोक्ता सततं ब्रह्मवादिनां तदित्यनभिसन्धाय फलं यज्ञ तपः क्रिया दानक्रियाश्च विविधा क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावे च सदित्येतन् प्रयोज्यते प्रशस्ते कर्मणि तथा सच्छब्दाः पार्थयोज्यते यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते कर्म चैव तदर्थीयम् सदित्येवाभिधीयते अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यन् असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः अथाष्टादशोऽध्यायः अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक्केशिनिषोदन श्रीभगवान् उवाच काम्यानां कर्मणां न्यासम् सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागम् प्राहुस्त्यागं विचक्षणा त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च परे निश्चयं शृणु मे तत्र त्यागे भरतसत्तमा त्यागो हि पुरुषव्याघ्र त्रिविधा सम्प्रकीर्तितः यज्ञदानतपः कर्म न त्याज्यं कार्यमेवित यज्ञोदानं तपश्चैव पावनानि मनीषिणा एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहात्तस्य परित्याग तामसः परिकीर्तितः दुःखमित्येव्यत्कर्मा काय क्लेश भयाकजेत सकृत्वा राजसं त्यागम् नैव त्याग फलम् लभेत् कार्यमित्येव्यत् कर्म नियतम् क्रियतेऽर्जुना संगम त्यक्त्वा फलम् चैव सत्यागः सात्विको मतः न द्वेष्ट कुशलम् कर्म कुशलेनानुसज्जते त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशयः